ॐ शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे सरस्वती नमस्तेस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे ॐ श्रीगुरुभ्यो नमः हरिः ओं सर्वेभ्यः नमः
धन्यवादः भगिनि
महोदय एषा प्रार्थना इच्छामि एषा प्रार्थना अहं न जानामि इच्छामि कथं प्राप्नोमि कथं प्राप्नोमि
उषा भगिनि
न महोदय मनसि अस्ति महोदय तत्र
अतः तत्र किञ्चित् लिखित्वा प्रेषयति वा भगिनि
अस्तु महोदय
हा धन्यवादः धन्यवादः अस्तु हर्षद भगिनि यदा अहं प्राप्नोमि तथा प्रेषयिष्यामि भगिनि
अस्तु
अस्तु सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकम् अद्यतन नूतनविषयः भवति एतावत् तत्र वयं लृङ्लकारस्य अभ्यासं कृतवन्तः तदनन्तरं तत्र अकर्मकाः सकर्मकाः अपि द्विकर्मकाः धातवः इति तस्मिन् विषये किञ्चित् चिन्तनं कृतवन्तः इदानीम् अद्य तत्र इदानीं दीर्घकाल अस्माकम् अभ्यासः भवति तत्र कर्मणि प्रयोगे इति कर्मणि प्रयोगः इति नूतन विषयः कर्मणि प्रयोगे तत्र आरम्भे तत्र लट्लकारे कथं भवति कर्मणि प्रयोगः इति पश्यामः तदनन्तरम् अन्येषु लकारेषु अपि तत्र प्रयोगः अपि अभ्यासः सर्वम् अग्रे भविष्यति इदानीं तत्र सर्वे तत्र कर्मणि प्रयोगः प्रयोगस्य अनुभवः सर्वेषां कृते अस्ति वा तत्र उषा भगिनी
किञ्चिदेव अस्ति महोदय
किञ्चित् अस्तु
त्रीणि एकम् एकं द्वे
इति जानाति अस्तु जानाति सूत्रं जानाति अस्तु समीचीनं तर्हि अस्तु तर्हि तत्र ततः एव आरम्भं कुर्मः तत्र बालकः श्लोकं पठति इति स्थाने तत्र बालकेन श्लोकः पठ्यते इति तत्र तादृशरूपं भवति इदानीं तत्र प्रथमतया तत्र यत् उषा भगिनी उक्तवती तत्र नियमः कः इति तत्र कर्मणि प्रयोगस्य तत्र नियमाः सन्ति केचन नियमाः तान् परिशील्य अग्रे सरामः तर्हि अस्तु तर्हि प्रिया भगिनी नमस्कारः इदानीं तत्र नमस्कारः भगिनी हा अतः कर्मणि प्रयोगः इति नूतन विषयः तत् सर्वं तत्र पाठयतु साक्षात् पाठयतु तत्र पुटसङ्ख्या अस्ति 116 किन्तु तत्र नियमाः के इति अपि तत्र परिचयत्वेन तत्र आरम्भः प्रायशः तत्र अवधेयम् इति यदस्ति पुटसङ्ख्या अस्ति 119 नवदशाधिकशततमे पुटे अतः तत्र आरम्भं कुर्मः तर्हि वंशीसुधा भगिनी नमस्कारः
नमस्ते महोदय
अस्तु अस्तु भगिनि हा कर्मणि प्रयोगः पेज् 119 भगिनि
अस्तु महोदय
अस्तु अस्तु नमस्कारः अस्तु तर्हि तत्र सुजाता भगिनी आरम्भं करोति वा तत्र पुटसङ्ख्या 119 मध्ये अवधेयम् इति
आं महोदय आं महोदय कर्तरिप्रयोगसम्बन्धवाक्यानां सम्बद्धवाक्यानां परिशीलनानन्तरं वयं कर्तरिप्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः
नाम किमस्ति तत्र किं लिखितमस्ति
कर्तरिप्रयोगसम्बन्धविषये
सम्बद्धवाक्यानां
परिशीलनानन्तरं वयं कर्तरिप्रयोगस्य नियमान् शक्नुमः
किं किम् अस्ति नियमः के इति अत्र सङ्ग्रहणं कर्तुं नियमानां सङ्ग्रहणं कर्तुं शक्नुमः. तत्र त्रयः नियमाः सन्ति.
कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्त्यन्तं भवति. यदा छात्रः श्लोकं पठति इत्यत्र छात्रः इति कर्तृपदं प्रथमाविभक्त्यन्तम् अस्ति. अग्रे पठामि.
तत्र एतत् अवगच्छामः सर्वे. कर्तृपदं
पठति छात्रः कर्तृपदम् अस्ति. प्रथमाविभक्त्यन्तपदम्
अस्ति तद् छात्रः इति पदं. समीचीनं. कर्तृपदम् अस्ति. समीचीनं.
कर्तरिप्रयोगे कर्मपदं यदि भवति तर्हि द्वितीयाविभक्त्यन्तं भवति. लेखकः ग्रन्थं लिखति इत्यत्र ग्रन्थम् इति द्वितीयाविभक्त्यन्तम् अस्ति. लेखकः ग्रन्थं लिखति. कर्तरिप्रयोगे कर्मपदं भवति चेत् तत् द्वितीयाविभक्त्यन्तं भवति. लेखकः ग्रन्थं लिखति इत्यत्र ग्रन्थम् इति द्वितीयाविभक्त्यन्तम् अस्ति. लेखकः कर्तृपदम् अस्ति. ग्रन्थं लिखति ग्रन्थम् इति द्वितीयाविभक्त्यन्तपदम् अस्ति.
तत्र प्रथमनियमः कर्तृपदस्य विषये अस्ति.
द्वितीयनियमः
कर्मपदस्य विषये अस्ति. इदानीं तृतीयनियमः क्रियापदस्य विषये भवति. अस्तु अग्रे.
कर्तरिप्रयोगे कर्तुः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति. कर्तृप्रयोगे कर्तुः क्रियापदस्य कर्तुः
कर्तृ इति ऋकारन्तपदं पितृ इति
ऋकारन्तपदं
पितृ इति पदस्य षष्टिका का षष्टिविभक्तिका
पितुः.
हा तथैव कर्तुः.
क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति.
अग्रे यदस्ति तत् पठतु.
कर्तृः पदम् एकवचनान्तं चेत् क्रियापदमपि एकवचनान्तं भवति. कर्तृपदं द्विवचनं बहुवचनान्तं वा चेत् क्रियापदमपि द्विवचनान्तं बहुवचनान्तं वा भवति. कर्तारम् अनुसृत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य योगः भवति. प्रयोगः भवति. कर्तृपदम् एकवचनम् अस्ति चेत् क्रियापदमपि एकवचनान्तम् एव भवति. कर्तृपदं द्विवचनान्तं बहुवचनान्तं वा चेत् क्रियापदमपि द्विवचनान्तं बहुवचनान्तं वा भवति. कर्तारम् अनुसृत्य एव प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगं भवति.
नाम तत्र कर्तृपदं प्रथमपुरुषे नाम सः इति अस्ति चेत् क्रियापदस्य रूपं किं भवति? प्रथमपुरुष भवति. त्वम् अस्ति चेत्
मध्यमपुरुष.
अहम् अथवा वयम् इति अस्ति चेत्
उत्तमपुरुष
पुरुषरूपं भवति इति एव वार्ता. समीचीनं. समीचीनं. धन्यवादः भगिनी. अस्तु अग्रे तत्र धन्यवादः भगिनी. अस्तु अग्रे तत्र ललिता भगिनी तत्र किञ्चित् उदाहरणं दत्तमस्ति खलु तत्र पठित्वा एकवारं किञ्चित् विवृणोतु. सर्वे जानीमः किन्तु एकवारं यदि मनसि भवेत् चेत् उत्तममेव.
यथा छात्रः श्लोकं पठति, अत्र छात्रः एकवचने अस्ति, कर्मपदमस्ति, कर्मपदम् अनुसृत्य क्रियापदम् अपि एकवचने अस्ति.
कर्तृपदम् अनुसृत्य खलु, न न
कर्तृपदम्,
कर्तृपदम् अनुसृत्य कर्मपदं
क्रियापदमपि एकवचने अस्ति. तथैव छात्रौ श्लोकं पठतः, छात्रौ कर्तृपदं द्विवचने अस्ति, कर्तृपदम् अनुसृत्य क्रियापदमपि द्विवचने अस्ति, पठतः. एवमेव छात्राः श्लोकं पठन्ति, छात्राः बहुवचने अस्ति, कर्तृपदम् अनुसृत्य क्रियापदमपि पठन्ति अस्ति बहुवचने.
समीचीनम्. अतः तत्र अतः कर्तुः क्रियापदस्य च वचनसम्बन्धः अस्ति कर्तृप्रयोगे खलु.
आम्,
वचनसम्बन्धः कयोः मध्ये अस्ति?
कर्तृपदं कर्मपदं मध्ये.
न कर्तृपदं क्रियापदं मध्ये.
कर्तृपदं क्रियापदं मध्ये.
समीचीनं. तत्र मनसि भवति भगिनी, किन्तु तत्र यदि वदामः क्लेशः भवति, अतः एव तत्र एकवारं सर्वे वदन्तु इति, तावदेव. समीचीनम् अस्तु. इदानीम् अग्रे तत्र पुरुषसम्बन्धः.
सः कार्यं करोति, अत्र सः कर्तृपदमस्ति, तदनुसृत्य क्रियापदमपि एकवचने अस्ति, करोति. एवमेव त्वं कार्यं करोषि, त्वम् अपि एकवचने अस्ति, मध्यमपुरुष एकवचने अस्ति, तदनुसृत्य क्रियापदमपि करोषि एकवचने अस्ति, मध्यमपुरुषे एकवचने अस्ति.
समीचीनम्. अग्रे
अग्रे अहं कार्यं करोमि, अहम् उत्तमपुरुष एकवचने अस्ति, तद् अनुसृत्य क्रियापदम् अपि उत्तमपुरुषे एकवचने अस्ति, करोमि
इति. समीचीनम्. अतः पुनः तत्र कर्तृपदस्य अपि
कर्तृपदम् अनुसृत्य कर्तृपदस्य पुरुषसम्बन्धम् अनुसृत्य कर्मपदमपि भवति.
समीचीनम्. अतः तत्र इदानीं तत्र वचनसम्बन्धः अपि अस्ति, पुरुषसम्बन्धः
सम्बन्धः अपि अस्ति,
अस्ति कर्तृप्रयोगे. समीचीनं, धन्यवादः भगिनी. उत्तमम्. अग्रे तत्र वेदा भगिनी, इदानीं प्रश्नः.
महोदय.
वेदा भगिनी, इदानीं प्रश्नः तत्र कदा कदा वयं तत्र प्रथमपुरुषस्य प्रयोगः भवति क्रियापदस्य, कदा मध्यमपुरुषस्य, कदा उत्तमपुरुषस्य इति वदति वा?
कदा भवति इत्युक्ते प्रथमपुरुष नो कर्तृप्रयोगे धातुः तिङन्तपदं कर्ता अनुसृत्य भवति. यदि कर्ता
सत्यं, किन्तु तत्र तत्र कति पदानि सन्ति तत्र मध्यमपुरुषे?
मध्यमपुरुषे त्रि, एकवचने, द्विवचने, बहुवचने.
कति पदानि सन्ति मध्यमपुरुषे? तानि कानि?
मध्यमपुरुषे पठसि, पठतः.
क्रियापदं न, क्रियापदं न, कर्तृपदं, कर्तृपदं मध्यमपुरुषे कर्तृपदं किं किं भवितुम् अर्हति?
ओ, मध्यमपुरुषे कर्तृपदं, फार् एक्साम्पल् उदाहरणं, छात्रः अस्ति चेत् छात्रः, छात्रौ, छात्राः.
न, मध्यमपुरुषे.
ओ, मध्यमपुरुषे, सोरि, सोरि, छात्रौ, छात्रौ, छात्राः, छात्रं, छात्रौ.
न, मध्यमपुरुषे द्विवचनं.
मध्यमपुरुषे कर्तृपदस्य किमर्थं मध्यमपुरुषे आयाति महोदय? धातु
केवलं तत्र पृच्छामि. तत्र मध्यमपुरुषरूपं किं भवति? उक्तवती किन्तु पुनः मा वदतु भगिनि
त्वं कार्यं करोति एतम् एतं वा सः कार्यं करोति त्वं कार्यं करोति
तत्र मध्यमपुरुष नाम किं तत्र कर्तृपद त्वम् अपि अनन्तरं
त्वम् अहं नैन
मध्यमपुरुष
सः सौते तं त्वं त्वम् इत्युक्ते अहं
एकवचने
एकवचने त्वं द्विवचने युवां बहुवचने युव्यम्
इति एव अस्ति मध्यमपुरुषे खलु केवलं विकल्पत्रयम् अस्ति मध्यमपुरुषे अन्यत् किमपि अस्ति वा तत्र मध्यमपुरुषे
विकल्पेन एक एकं
किं
न
तावदेव अस्ति भवान् इति अथवा भवति किं भवति तत्र भवान् इति मध्यमपुरुषः वा अन्यः पुरुषः वा भवान् इति
भवान् इति प्रथमपुरुष
हा भवती अपि प्रथमपुरुष एव अतः तत्र केवलं त्वं युवां यूयम् इति मध्यमपुरुषे उत्तमपुरुषे किं किं भवति
उत्तम उत्तमपुरुषे भवति अहम् आवां वयम्
इति एव षड् पदानि एव सन्ति मध्यमपुरुषे उत्तमपुरुषे तानि विहाय षड् पदानि विहाय अन्यत् यत्किमपि कर्तृपदं भवतु सर्वदा प्रथमपुरुषे एव भवति खलु अतः तत्र वयं वदामः मध्यमपुरुषे उत्तमपुरुषे इति किन्तु केवलं तत्र मध्यमपुरुषे उत्तमपुरुषे विकल्पाः न्यूनाः एव तत्र केवलं षड्
आम् सत्यं
हा तद् तद्विहाय सर्वं प्रथमपुरुषे एव अस्ति अतः तत्र यदा वयं कर्मणि प्रयोगः कुर्मः अथवा अन्यत् किमपि एतत् मनसि भवेत् तत्र पुरुषः अस्ति चेत् तत्र सर्वदा तत्र केवलं षड् एव अस्ति मध्यमपुरुषे उत्तमपुरुषे तत्र सर्वम् अन्यत् सर्वं
प्रथमपुरुषे
प्रथमपुरुषः एव इति समीचीनम् अस्तु अग्रे भवती एव पठति वा तत्र अग्रे तत्र
एवमेव कर्मणि प्रयोगसम्बद्धसम्बद्धसम्बद्धसम्बद्ध कर्मणि प्रयोगे कर्मणि प्रयोगसम्बद्धवाक्यानि परिशील्य वयं कर्मणि प्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः एवमेव कर्मणि प्रयोगसम्बद्धवाक्यानि परिशील्य अधोभागे दत्तमस्ति कर्मणि प्रयोगसम्बद्धवाक्यानि तत् परिशील्य वयं कर्मणि प्रयोगस्य नियमान् किं नियमाः सन्ति इति तत् सङ्ग्रहीतुं शक्नुमः सङ्ग्रहणं कर्तुं शक्नुमः प्रथमतया कर्मणि प्रयोगे कर्तृपदं तृतीया विभक्त्यन्तं भवति कर्मणि प्रयोगे कर्तृपदं सदा तृतीयविभक्त्यन्तम् एव भवति
प्रथमनिकषः तत्र कर्तृपदस्य विषये
कर्तृपदस्य विषये कर्मणि प्रयोगे कर्मपदं प्रथम प्रथमाविभक्त्यन्तम् एव भवति तत्र कर्मणि प्रयोगे कर्मपदं प्रथमाविभक्त्यन्तमेव भवति द्वितीया न प्रथमाविभक्ति एव भवति
समीचीनम् अस्तु तावत्पर्यन्तं धन्यवादः भगिनि इदानीम् अन्य कोऽपि पठतु धन्यवादः अस्तु अग्रे प्रिया भगिनि तृतीयनियमः कर्मणि प्रयोगे
कर्मणि प्रयोगे कर्मणः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति कर्मपदम् एकवचनान्तं चेत् क्रियापदमपि एकवचनान्तं भवति कर्मपदं द्विवचनान्तं चेत् बहुवचनम् आन्तं वा चेत् क्रियापदमपि द्विवचनान्तं बहुवचनान्तं वा भवति कर्म अनुसृत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति
अतः तत्र यथा कर्तृप्रयोगे आसीत् तथैव अत्रापि सम्बन्धः वर्तते क्रियापदस्य किन्तु तत्र कर्तृपदस्य सम्बन्धः आसीत् अत्र कर्मपदस्य सम्बन्धः अस्ति अस्तु एकवारं तत्र उदाहरणानि सन्ति एकवारं पठति वा
यथा बालकेन चाकलेहः खाद्यते वचनसम्बन्धः बालकेन चाकलेहौ खाद्येते वचनसम्बन्धः बालकेन चाकलेहाः खाद्यन्ते अत्रापि वचनसम्बन्धः अस्ति चाकलेहः खाद्यते चाकलेहौ खाद्येते चाकलेहाः खाद्यन्ते कर्मपदस्य यत् विभक्ति अस्ति तत् विभक्ति
वचनं
यत् वचनम् अस्ति तत् वचनमपि क्रियापदस्य भवति
तत्र अत्र तु तत्र वचनभेदः अस्ति तत्र खाद्यते खाद्येते खाद्यन्ते किन्तु कर्तृपदस्य तु सर्वदा एकवचनमेव अस्ति खलु बालकेन 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 इति एव अस्ति किन्तु कर्मपदस्य चाकलेहः चाकलेहौ चाकलेहाः इति अस्ति अतः तत्र समीचीनं हा अस्तु वचनसम्बन्धः अस्ति इदानीं पुरुषसम्बन्धः
बालकेन सह ताड्यते पुरुषसम्बन्धः बालकेन त्वं ताड्येसे बालकेन अहं ताड्ये पुरुषसम्बन्धः भवति अत्र यत् विभक्ति पुरुषस्य सह क्षम्यतां यत् पुरुषः भवति कर्मपदस्य तत् तदेव पुरुषः क्रियापदस्य भवति आम्
समीचीनं
कर्मपदस्य प्रथमपुरुषः अस्ति चेत् क्रियापदस्यापि प्रथमपुरुषः एव भवति
हा समीचीनं हा समीचीनं भगिनि अपि तत्र इदानीं तत्र अग्रे तत्र एतावत् तत्र वयं कर्तृप्रयोगस्य बहु किमपि अभ्यासं कृतवन्तः किन्तु इदानीं तत्र अग्रे तत्र कर्मणि प्रयोगस्य अपि तत्र बहु किमपि अभ्यासम् अभ्यासः अस्माकं भवति अग्रे गत्वा अस्तु तत्र अग्रे तत्र धन्यवादः भगिनि अग्रे तत्र हर्षदा भगिनी अग्रे किञ्चित् वदति वा तत्र अवधेयम् इति अस्ति तत्र
आम् आम् अवधेयं वचनसम्बन्धः पुरुषसम्बन्धः सम्बन्धः च कर्तरिप्रयोगः बालकः प्रथमाविभक्ति श्लोकं द्वितीयाविभक्ति पठति बालकः कर्तृपदं कर्मणि प्रयोगे तत् बालकेन इति तृतीयाविभक्त्यन्त भवति श्लोकम् इति कर्मपदं द्वितीयाविभक्त्यन्त अस्ति कर्तरिप्रयोगे कर्मणि प्रयोगे तत् श्लोकः इति प्रथमाविभक्त्यन्त भवति कर्तरिप्रयोगे पठति इति क्रियापदम् अस्ति तस्य सम्बन्धः कर्तृसः अस्ति कर्मणि प्रयोगे तत् पठ्यते इत्युक्ते धातु अधिक य अधिकते इत्युक्ते पठ अधिक य अधिकते पठ्यते भवति तस्य वचन तथा पुरुषसम्बन्ध कर्मेण सह भवति
कर्मेण न तत्र कर्मणा सह
सोरि क्षम्यतां महोदय कर्मणा सह भवति
कर्मणा सह भवति समीचीनं हा अतः तत्र यदि वयं तत्र कर्मणि प्रयोगः तत्र प्रयोगः भवतु इति इच्छामः तस्मिन् सन्दर्भे अस्माकं तत् कति कार्याणि सन्ति तत्र
आम् तत्र कर्तरिप्रयोगे कर्ता प्रथमे मध्ये अस्ति तस्य परिवर्तनं तृतीये मध्ये करणीय अनन्तरम्
एकं कार्यं प्रथमकार्यं
द्वितीय कर्मपदं कर्तरिप्रयोगे द्वितीयाविभक्तौ अस्ति तस्य परिवर्तनं प्रथमे मध्ये करणीयम् अनन्तरं धातोः परिवर्तनं कर्मणि प्रयोगे मध्ये धातुः अधिक य अधिक ते इति रूपं करणीय अनन्तरं तद् धातोः अन्वय कर्मपदेन सह करणीय चत्वारि कार्याः चत्वारः कार्याः सन्ति
अतः तत्र अस्मिन् सन्दर्भे तत्र प्रथमवारं यदा कुर्मः तत्र सावधानं भवेत् किन्तु तदनन्तरं तत्र तत्र पदे पदे कृत्वा तत्र अभ्यासः भवति तत्र किं सारल्यं भवति अस्माकं तत्र निर्माणे कोऽपि क्लेशः न भवति किन्तु तत्र कर्तृपदस्य परिवर्तनं कर्मपदस्य परिवर्तनं क्रियापदस्य अपि परिवर्तनं भवेत्। किन्तु अग्रे वाक्यानि परिशीलयामः, किन्तु इदानीमेव एतत् मनसि स्थापयामः, नाम केवलं तत्र वाक्ये तत्र अन्य किमपि पदं भवेत्, तत्र सप्तमीविभक्त्यन्तम् अस्मिन् गृहे अथवा तत्र किमपि वातायने अथवा तत्र मन्दिरे किमपि अस्ति चेत् तस्य परिवर्तनं न भवति।
महोदय, केवल प्रथमाविभक्ति अस्ति तत् तृतीये मध्ये परिवर्तनं करणीयं, द्वितीया अस्ति तस्य परिवर्तनं प्रथमा मध्ये करणीयं, अन्य सर्वे विभक्तय तदेव रक्षणीयं।
तथैव तिष्ठन्ति, समीचीनं, तथैव अस्ति। अतः तत्र आदौ वयं केवलं तत्र सरलवाक्यानाम् एव तत्र परिवर्तनं कुर्मः, नाम तत्र कर्तृपदं कर्मपदं क्रियापदं तस्य एव, यतोहि तत्र आरम्भे एतादृशानां वाक्यानां परिवर्तनं मनसि सम्यक्तया स्थापयामश्चेत् अग्रे गत्वा तत्र अन्यपदानि यानि सन्ति तेषां परिवर्तनं न भवति एव। अतः तत्र यदि तादृशदीर्घवाक्यं भवति चेदपि वयं तत्र परिवर्तनं कर्तुं शक्नुमः, यतोहि तत्र केवलं अस्मिन् विषये एव तत्र कर्तृपदं कर्मपदं क्रियापदं तत्र एव परिवर्तनम् अपेक्षितम् इति कृत्वा। अस्तु, समीचीनम्। अतः तत्र भगिनी हर्षिता भगिनी भवती एव तत्र अग्रे तत्र कर्मणि वाक्यानि तत्र अपि अत्र अन्यः अंशः अस्ति तत्र तत्र क्रियापदं तत्र कर्तृप्रयोगे वयं जानीमः धातुः परस्मैपदीधातुः वा आत्मनेपदीधातुः वा भवितुम् अर्हति, किन्तु कर्मणि प्रयोगे सर्वदा रूपं तु आत्मनिपदि इव ते एव भवति खलु।
आम् आम्,
हा, अतः तत्र इदानीं तत्र आत्मनिपदीधातूनां परिचयः भवेत्, तत्र रूपस्य परिचयः भवेत्। अस्तु, अतः तत्र तत् पठतु भगिनि तत्र कर्मणि प्रयोगे वाक्यानि एवं भवति इति।
आम्, कर्मणि प्रयोगे वाक्यानि एवं भवति। प्रथमपुरुषः बालेन सह दृश्यते, बालेन तौ दृश्यते, द्विवचनं, बालेन ते दृश्यन्ते इति बहुवचनं। मध्यमपुरुषः बालेन त्वं दृश्यसे, एकवचनं, बालेन युवां दृश्येथे, द्विवचनं, बालेन यूयं दृश्यध्वे, बहुवचनम्। उत्तमपुरुषः बालेन अहं दृश्ये, एकवचनं, बालेन आवां दृश्यावहे, द्विवचनं, बालेन वयं दृश्यामहे, बहुवचनम्।
हा, इति रूपाणि भवन्ति। अस्तु, इदानीं तत्र केवलं तत्र मनसि सम्यक् स्थापितं भवेत् इति कृत्वा अग्रे तत्र ललिता भगिनी इदानीं तत्र बालेन सह दृश्यते इति अस्ति तत्र कर्तृप्रयोगः कः अत्र, कस्मात् वाक्यात् बालः
बालः तं पश्यति,
हा, इति अस्ति, बालः तं पश्यति, समीचीनम्। इदानीं तत्र द्वितीयं तृतीयमपि करोतु, तत्र प्रथमपुरुषे यदस्ति
बालः बालौ,
सत्यं, न बालः एव, यतोहि बालेन एव अस्ति, हा, अतः बालः तत्र तौ सः तौ ते इति तत्र तौ इति अस्ति,
तौ द्विवचनमस्ति,
द्विवचनमस्ति, प्रथमाविभक्त्यन्तम् अस्ति, किन्तु तौ इति पदस्य द्वितीयविभक्तिरूपं किं,
तौ एव,
सः तौ एव, अतः बालः तौ,
बालः तौ पश्यतः,
न, यतोहि कर्तृप्रयोगे कर्तृपदम् अनुसरति खलु, बालः पश्यति खलु,
बालः तौ पश्यति
इति एव अस्ति खलु, हा, इति अतः एव तत्र नियमाः सुलभाः एव सन्ति, वयम् अवगच्छामः, क्लेशः मनसि नास्ति एव, किन्तु प्रयोगे किं भवति, अस्माकं मनसि क्लेशः उद्भवति, तत्र किं करणीयं द्विवचनम् इति. हा, अतः ललिता भगिनी चिन्ता मास्तु, एतादृशं प्रयोगः बहुवारं कुर्मः. अस्तु, तृतीयवाक्यं.
बालेन ते दृश्यन्ते. बालः तान् बालः तान् पश्यति
इति एव अस्ति. हा, तत्र सर्वदा बालः पश्यति, बालः कं पश्यति इति एव प्रश्नः भवति खलु. इदानीम् उत्तरं तं पश्यति, तौ पश्यति, तान् पश्यति इति एव अस्ति. समीचीनं भगिनि. हा, अस्तु, अग्रे धन्यवादः. अग्रे सुजाता भगिनी, द्वितीय मध्यमपुरुषवाक्यानि कर्तृप्रयोगरूपं किम्?
आम् महोदय, बालेन तं त्वं दृश्यसे. बालः त्वं तं त्वं चेत् सः तेता तं
त्वं त्वं युवां यूयम् इदानीं तत्र
महोदय क्षम्यताम्.
अन्य कोऽपि सहायं करोति वा तत्र? त्वम् इति
त्वां पश्यसे.
न पश्यति, भवती एव पठितवती खलु तत्र कर्तृप्रयोगे कर्तृपदस्य क्रिया. बालः इति एव कर्तृपदं खलु अत्र?
आम् आं महोदय.
त्वां पश्यति,
पश्यसे भवति न महोदय.
किमर्थं कर्तृप्रयोगः इदानीं?
कर्तृ बालः
बालः अस्ति चेत् तत्र सुजाता भगिनी, त्वं त्वाम् इति त्यजामः, बालः अस्ति. इदानीं तत्र क्रियापदस्य रूपं किं भवेत्? पश्यति वा पश्यसि वा पश्यामि वा किं भवेत्?
बालः पश्यति.
बालः पश्यति एव खलु?
बालः
पश्यति एव. इदानीं प्रश्नः, बालः कम् अथवा काम् अथवा किं पश्यति? इदानीम् उत्तरं किम्?
त्वां पश्यति.
त्वां पश्यति, समीचीनम्. इदानीं बालः, द्वितीयवाक्यं, बालः
बालः त्वां पश्यति.
हा, इदानीम् एकवचने. अस्तु, इदानीं मध्यमपुरुषद्विवचने, बालेन युवां दृश्यते
पश्यति.
बालः एव एकवचने.
बालेन युवां, आम् महोदय, बालेन युवां पश्यति.
भगिनि, इदानीं बालेन युवां दृश्यते इति अस्ति, तत्र बालेन इति विभक्ति का?
तृतीयाविभक्ति अस्ति.
तृतीयाविभक्ति. कर्तृपदमस्ति वा तत्?
युवाम् अस्ति.
न
कर्तृपदं बालः अस्ति.
कर्तृपदं बालः अस्ति. अस्तु, समीचीनम्. इदानीं तत्र कर्मणि प्रयोगवाक्यमस्ति, बालेन युवां दृश्यते खलु?
आं महोदय,
कर्मणि प्रयोगवाक्यमस्ति. इदानीं कर्तृप्रयोगवाक्यं कर्तुम् इच्छामः, तत्र बालेन इति स्थाने बालः इति भवति. समीचीनम्. इदानीं युवाम् इति त्यजतु, दृश्यते इति क्रियापदम् अस्ति, अतः तत्र बालः इति कर्तृपदम् अस्ति, अतः क्रियापदं किं भवति?
पश्यति.
हा, बालः पश्यति. इदानीं युवाम् इति अस्ति, युवाम् इति अत्र कर्मणि प्रयोगे युवाम् इति पदमस्ति, तत्र विभक्ति का कर्मणि इति? कर्मणि प्रयोगः अस्ति, कर्मणि प्रयोगे कर्मपदं प्रथमाविभक्तौ अस्ति खलु?
आम् आं महोदय.
अतः युवाम् इति कर्मपदं तद् प्रथमाविभक्त्यन्तम् अस्ति, कर्मणि प्रयोगः वाक्यमस्ति खलु?
आं महोदय.
हा, इदानीं तत्र युवाम् इति पदस्य द्वितीयाविभक्तिरूपं किम्?
किं तृतीया विभक्ति
द्वितीया विभक्ति द्वितीया विभक्तिरूपं
युवां
निकोपि सहायं करोतु अतः बालः युवां
युवां पश्यति
बालः युवां पश्यति पश्यति एव बालः किञ्चित् तत्र पश्यति एव भवति इदानीं तत्र तृतीयवाक्ये पुनः तत्र किं भवति बालः
बालः यूयं पश्यति
न न यूयम् इति प्रथम
बालः पश्यति
यूयम् इति पदस्य द्वितीयविभक्तिरूपं किम्
युष्मान् बालः युष्मान्
पश्यति
पश्यति
हा इति एव अस्ति तत्र एतद् तत्र कर्तृप्रयोगात् कर्मणि प्रयोगः कर्मणि प्रयोगात् कर्तृप्रयोगः द्वयमपि वयं कर्तुम् इच्छामः तत्र बहुवारं कुर्मः अतः चिन्ता मास्तु
महोदय क्रियापदम् अस्ति चेत् बालः
चिन्ता मास्तु शुभदा भगिनी नमस्कारः अस्तु तत्र
नमस्ते महोदय
नमस्कारः भगिनि 120 अस्ति भगिनि
प्राप्तवती
अस्तु समीचीनम् अस्तु अग्रे तत्र उषा भगिनी अग्रे तत्र उत्तमपुरुषे हा धन्यवादः भगिनि
उत्तमपुरुषे बालेन अहं दृश्ये कर्तरिप्रयोगे बालः मां पश्यति
समीचीनं
द्वितीय
बालः इति कर्तृपदं माम् इति कर्मपदं द्वितीयविभक्त्यन्तं पश्यति इति
क्रियापदम्
हा बालः इति प्रथमपुरुषे एकवचनम् अस्ति पश्यति अपि तथैव अस्तु इदानीं बालेन
क्रियापदे कर्तृपदम् अनुसृत्य क्रियापदं भवति
हा समीचीनम् अस्तु अग्रे द्वितीयवाक्यं
बालेन आवां दृश्यावहे बालः आवां पश्यति
हा तत्र आवाम् इति अस्ति विभक्तिका भवत्याः वाक्ये तत्र कर्तृप्रयोगवाक्ये
प्रथमा विभक्ति अपि आवां मध्यमपुरुषे आवां द्विवचनम् आवाम् अस्ति
रूपभेदः नास्ति किन्तु कर्मणि प्रयोगे आवाम् इति यदस्ति तस्य विभक्तिका
प्रथमा विभक्ति महोदय
हा कर्मणि प्रयोगे किन्तु कर्तृप्रयोगे आवाम् इति
द्वितीयविभक्ति
तत्र द्वितीयविभक्ति समीचीनं हा तत्र भेदः न भवति किन्तु विभक्ति तु भिन्ना समीचीनम् अस्तु अग्रे तृतीयवाक्यं
बालेन वयं दृश्यामहे कर्तरिप्रयोगे बालः अस्मान् पश्यति
हा इति अस्ति समीचीनम् अस्मान् पश्यति समीचीनं हा उत्तमं भगिनि धन्यवादः अस्तु अग्रे तत्र प्रिया भगिनी अग्रे तत्र अवधेयम् इति अस्ति पठति वा तत्र
आम् महोदय अवधेयं परस्मैपदी पठति कर्मणि प्रयोगे पठ्यते आत्मनेपदी सेवते कर्मणि प्रयोगे सेव्यते उपरि दत्तेषु धातुषु रूपेषु परस्मैपदीनाम् अन्ते ति इति आत्मनेपदीनाम् अन्ते ते इति च अस्ति कर्मणि प्रयोगे तु उभयविधानाम् अपि धातूनाम् अन्ते ते इति आत्मनेपदीरूपमेव भवति कर्मणि प्रयोगे धातोः अनन्तरं यकार य इति श्रूयते
अतः सारांशः कः तत्र
सारांशः एतत् अस्ति पठति इति परस्मैपदीरूपम् अस्ति अत्र पट् धातु स्वीकृत्य तस्य पूर्वं तत्पश्चात् य इति योजयित्वा ते इति आत्मनेपदरूपमेव आगच्छति पठ्यते इति भवति तथैव आत्मनेपदे अपि सेव् इति धातु स्वीकृत्य तत्पश्चात् य इति योजयित्वा आत्मनेपदी अन्तम् आत्मनेपदीरूपमेव अन्तमेव आगच्छति ते इति सेव्यते इति भवति
हा समीचीनम् अस्तु अस्तु समीचीनम् अतः इदानीं
तत्र
य इति प्रत्यय अस्ति वा महोदय तत्र
यक् यक् इति अस्ति भगिनि तत्र तत्र य इति रूपं प्राप्नोति
अस्तु
तत्र पट् योगः यक् किन्तु तत्र य इति भवति पट्य ते इति अस्तु इदानीं तत्र केवलं तत्र अभ्यासार्थं तत्र किमपि वाक्यं स्वीकुर्मः तत्र केवलं तत्र पठ्य पठति इति अपि अन्यत् किमपि आसीत् खलु तत्र हा खादति खाद्यते इति जानीमः अस्तु तमेव उपयुज्य कुर्मः तत्र पठति पठ्यते इति अस्ति अतः तत्र छात्रः श्लोकं पठति इति तस्य हा तत् किमपि हा बालकेन श्लोकः पठ्यते इति आसीत् अस्तु एतत् स्वीकुर्मः तत्र हा हर्षदा भगिनी तत्र यानि वाक्यानि दत्तानि तत्र छात्रः श्लोकं पठति अपि छात्रौ श्लोकं पठतः छात्राः श्लोकं पठन्ति इति अस्ति तत्र प्रथमं स्वीकृत्य परिवर्तयति वा तत्र कर्मणि
अस्ति वाक्यं महोदय
तत्र यः नियमः आसन् खलु भगिनि
नियमः
केवलं छात्रः श्लोकं पठति इति एव तत्र तस्य कर्मणि प्रयोग
छात्रः श्लोकं पठति छात्रेण श्लोकः पठ्यते अनन्तरं छात्रेण श्लोकौ पठ्येते
अस्तु अपि
छात्रेण श्लोकाः पठ्यन्ते
पठ्यन्ते इति भवति समीचीनम् अपि अत्र छात्रेण इति यदि कुर्मः तथापि तत्रापि एकः अंशः अस्ति नाम तत्र तृतीयाविभक्तिरूपं यदि इच्छामः तत्र णत्वम् इति तस्य किञ्चित् ज्ञानं भवेत् खलु यतोहि अत्र तत्र देवेन इति अस्ति किन्तु छात्रः अस्ति चेत् तत्र छात्रेण
भवति र रु वा श अस्ति अनन्तरं क वर्ग प वर्ग य र व ह तथा स्वराः सन्ति चेत् तस्य अण भवति
इति समीचीनम्
अन्यथा अन्यथा न एव तिष्ठति अन्यथा न एव तिष्ठति
समीचीनं समीचीनं भगिनि अतः तत्र अस्तु अतः तत्र तृतीयव्यक्तिरूपे रूपस्य निर्माणे एतत् किञ्चित् ज्ञानं बहु किमपि नास्ति किन्तु तत्र नत्वं भवति न वा इति चिन्तनीयम् अस्ति अस्तु समीचीनं धन्यवादः भगिनि इदानीं तत्र छात्रौ श्लोकं पठतः इति तत्र इदानीं तत्र अस्तु अन्य कोऽपि करोतु भगिनि धन्यवादः भगिनि
अहं वा महोदय
आं भगिनि शुभदभगिनि तत्र छात्रौ श्लोकं पठतः
छात्रौ श्लोकं पठतः तस्य कर्मणि भवति छात्राभ्यां श्लोकः पठ्यते
समीचीनं इदानीं तत्र छात्रः इदानीं तत्र कर्मपदस्य द्विवचनं बहुवचनमपि करोतु
छात्रौ श्लोक कर्मपदस्य द्विवचनं खलु
द्विवचनं
छात्रौ श्लोकौ पठतः तस्य छात्राभ्यां श्लोकौ एव छात्राभ्यां श्लोकौ पठ्येते
इति अस्ति समीचीनम् इदानीं तत्र श्लोकाः इति
छात्रौ श्लोकाः पठन्ति
श्लोकान्
पठन्ति तस्य
छात्राभ्यां पठतः एव
छात्रौ श्लोकान् पठतः तस्य छात्राभ्यां श्लोकाः पठ्यन्ते
इति भवति समीचीनं हा इति अस्ति अस्तु समीचीनम् अस्तु अग्रे तत्र सर्वे कृतवन्तः वा अस्तु तत्र वेदा भगिनी इदानीं तत्र छात्राः श्लोकं पठन्ति इति उपयुज्य
छात्राः
तत्र कर्मणि प्रयोगः
छात्राः श्लोकं पठन्ति कर्तरी प्रयोगे कर्मणि प्रयोगे छात्राः भवति चेत् छात्राः छात्रौ तृतीयाविभक्ति छात्रैः छात्रैः श्लोकः पठ्यते
हा इदानीं श्लोकः इति स्थाने द्विवचनं बहुवचनं कर्मपदस्य हा
कर्मपदस्य कर्मणि प्रयोगे
प्रथमतया कर्तृप्रयोगवाक्यं वदतु तदनन्तरं कर्मणि प्रयोगवाक्यं वदतु
छात्राः किं वदति महोदय
श्लोकमिति स्थाने श्लोकौ
छात्राः श्लोकौ छात्राः श्लोकौ पठन्ति
छात्राः
ओ छात्राः एव आम् आम् पठन्ति छात्राः श्लोकौ पठन्ति तस्य कर्मणि प्रयोगः अस्ति छात्रैः श्लोकौ श्लोकौ एव भवति
सत्यं श्लोकौ
पठन्ति श्लोकौ पठ्येते
हा पठ्येते समीचीनं हा इदानीं तत्र श्लोकाः इति भवेत् कर्मपदस्य बहुवचनरूपं छात्राः किं भवति
छात्राः श्लोकाः वा
श्लोक तत्र कर्मपदस्य बहुवचनरूपं भवेत्
श्लोकान्
श्लोकान् छात्राः श्लोकान् पठन्ति
इदानीं तस्य कर्मणि प्रयोगे तस्य कर्मणि प्रयोगे छात्रैः श्लोकाः छात्रैः श्लोकाः पठ्यन्ते
पठ्यन्ते इति एव अस्ति समीचीनं भगिनि हा अस्तु अग्रे तत्र सुजाता भगिनी इदानीं तत्र तत्र बालकः चाकलेहं खादति इदानीं तत्र किं भवति
बालकः चाकलेहं खादति
तत्र खादति इति स्थाने खाद्यते इति
खाद्यते भवति बालकः बालकेन भवति तृतीयाविभक्ति चाकलेकः प्रथमाविभक्ति भवति खाद्यते भवति क्रियापदम्
अतः बालकेन चाकलेहः
खाद्यते
अस्तु इदानीं तत्र बालकौ अथवा बालकौ स्तः इदानीं तत्र किं भवति बालकौ
बालकौ बालकेन चाकलेकौ
इदानीं न बालकौ इति इदानीं द्विवचने बालकद्वयं सन्ति अस्ति अतः
बालकौ चाकलेहं खादतः
हा इदानीं तत्र तत् स्वीकृत्य बालकौ चाकलेहं खादतः इदानीं तत्र कर्मणि प्रयोगे
तृतीयाविभक्ति भवति बालकेन
बालकौ इति द्विवचने अस्ति खलु
बालकौ द्विवचने अस्ति
तस्य तृतीया
कर्तृपदं
बालकौ इति कर्तृपदम् इदानीं बालकौ इति द्विवचनम् अस्ति प्रथमाविभक्ति द्विवचनम् अतः तत्र तृतीयाविभक्ति द्विवचनम् अपेक्षितं खलु
बालकभ्यः
न तत्र सुब्रा भगिनी अपि उक्तवती तत्र छात्रा
छात्राभ्यां बालकाभ्यां
हा बालकाभ्यां हा
बालकाभ्यां चाकलेहः खाद्यते
खाद्यते एव यतोहि चाकलेहः इति कर्मपदं
प्रथमाविभक्ति एकवचनम् अस्ति
खाद्यते एव अस्ति इदानीं तत्र चाकलेहः इति एकवचने अस्ति अस्तु इदानीं तत्र प्रायशः तत्र किञ्चित् अभ्यासः अभवत्, अस्तु तर्हि तत्र साक्षात् पाठः यः अस्ति तं पठामः, तदा अस्माकमपि तत्र किञ्चित् अनुभवः भवति इति मन्ये. अस्तु तर्हि अत्र अग्रे तत्र इदानीं तत्र मूलपाठः यत्र अस्ति पेज् 116 षोडशाधिकशततमे पुटे तत्र सम्भाषणं सर्वम् अस्ति, तत्र तत् पठामः. अस्तु तत्र अस्तु उषा भगिनी तत्र किञ्चित् आरम्भं करोति वा तत्र?
आं महोदय, धन्यवादः.
धन्यवादः भगिनि.
संस्कृतिः संस्कृताश्रिता, कर्मणि प्रयोगः वर्तमानकाले, एतत् सम्भाषणम् उच्चैः पठत. कश्चन प्रधानाचार्यः संस्कृतकार्यक्रमेषु महती आसक्तिः तस्य, सः विद्यालये अध्यापकानाम् एकां गोष्ठीम् आहूय कार्यक्रमाणां सन्दर्भे चर्चां करोति.
हा किञ्चित् विवृणोतु तत्र किं दत्तमस्ति.
अस्तु महोदय, कश्चन प्रधानाचार्यः संस्कृतकार्यक्रमेषु महती आसक्तिः तस्य अस्ति इत्युक्ते कश्चन प्रधानाचार्यः तस्य
कोऽपि अस्ति प्रधानाचार्य नाम आचार्येषु प्रधानः अस्ति,
आचार्येषु प्रधानः अस्ति,
अध्यापकेषु नाम तत्र प्राध्यापकः इति तादृश कोऽपि अस्ति
अस्ति
तस्य
तस्य संस्कृतकार्यक्रमेषु महती आसक्तिः अस्ति.
तस्य आसक्तिः अतः तत्र आसक्तिः विश्वासः यत्र भवति तत्र विभक्तिका भवति
सप्तमी विभक्ति
तस्मिन् विषयसप्तमी संस्कृतकार्यक्रमेषु विषयेषु महती आसक्तिः तस्य
आसक्तिः स्त्रीलिङ्ग अस्ति अतः महती अपि
इति भवति विशेषणं समीचीनम्
अस्ति तस्य. सः विद्यालये सप्तमी विभक्त्यन्तमस्ति. अध्यापकानाम् एकां गोष्ठीम् एकां स्त्रीलिङ्गे अस्ति गोष्ठिः अतः एकाम् अपि स्त्रीलिङ्गे अस्ति आहूय आह्वयति महोदय
लेबन्तम्
कार्यक्रमाणां सन्दर्भे चर्चां करोति किं किं करणीयम् इति
किमपि कोऽपि कार्यक्रमः अस्ति तत्र
तस्य
विषये
सम्बन्धे चर्चां करोति सः
चर्चां करोति समीचीनं. अस्तु अस्तु प्रथम तत्र वाक्यं पठित्वा तत्र अनन्तरम् अन्य कोऽपि पठति.
आं महोदय, प्रधानाचार्यः वदति संस्कृतसप्ताहस्य आचरणावसरे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते. अस्मिन् वर्षे अपि कार्यक्रमाः क्रियन्ते खलु
इति. अस्तु इदानीं तत्र किञ्चित् विवृणोतु तत्र
कर्तरिप्रयोगे वदामि वा महोदय?
न, प्रथमतया तत्र वाक्यस्य अर्थः कः इति वदतु.
संस्कृतसप्ताहस्य आचरण अवसरे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते इत्युक्ते प्रतिवर्षं ते बहवः कार्यक्रमाः कुर्वन्ति कार्यक्रमान् कुर्वन्ति अपि च
तत्र
बहून् कार्यक्रमान् कुर्वन्ति अस्मिन्
सन्दर्भे कस्मिन् अवसरे कस्मिन् सन्दर्भे
संस्कृतसप्ताहस्य
आचरणं तत्र पूर्णसप्ताहः संस्कृतस्य एव भवति तस्य संस्कृतस्य आचरणं पूर्णसप्ताहः भवति इति कृत्वा संस्कृतसप्ताहस्य आचरण तस्य अवसरे इदानीं तत्र अस्तु समीचीनम् अत्र इदानीं तत्र कर्तरिप्रयोगः कः इति वदतु.
अस्माभिः तृतीयविभक्त्यन्तम् अस्ति कार्यक्रमाः कर्मपदमस्ति अपि च क्रियन्ते क्रियापदमस्ति यदि कर्तरिप्रयोगं करोमि चेत् अस्माभिः अहम् आवां वयं क्रियन्ते वयं प्रतिवर्षं बहून् कार्यक्रमान् कुर्मः
हा इति भवति समीचीनम् अतः तत्र पूर्णवाक्यं वदतु इदानीं तत्र
संस्कृतसप्ताहस्य आचरणावसरे वयं प्रतिवर्षं बहून् कार्यक्रमान् कुर्मः
हा इति भवति समीचीनं भगिनि हा तत्र अन्येषां पदानां परिवर्तनं
न
भवति समीचीनम् अस्तु इदानीं द्वितीयवाक्यम्
अस्मिन् वर्षे अपि कार्यक्रमाः क्रियन्ते खलु कर्तरिप्रयोगे अस्मिन् सप्तम्यन्तमस्ति तत्र अस्मिन् वर्षे अपि कार्यक्रमान् क्रियन्ते कुर्वन्ति खलु
न कुर्वन्ति इति तत्र प्रायशः तत्र किम् अस्ति यद्यपि तत्र कर्तृपदं न दत्तं
कुर्मः
कुर्मः यतोहि वयम् इति एव सूचितं भवति अस्मिन्
वर्षे अपि वयं कार्यक्रमान् कुर्मः खलु
हा इति भवति समीचीनं हा इति उत्तमं भगिनि हा अस्तु हा अस्तु अग्रे तत्र ललिताकुमारी भगिनी अग्रे करोति वा
आं प्रयत्नं करोमि राजेन्द्रः निश्चयेन श्रीमान् अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय पञ्चमवर्गस्य छात्राः सज्जीकृताः विद्यालयस्य पुरतः मार्गे स्थित्वा तैः सर्वेषां ललाटे तिलकं धार्यते संस्कृतसप्ताहस्य शुभाशयाः उच्यन्ते
इदानीं तत्र किञ्चित् वदतु भगिनि तत्र
अस्मिन् वर्षे अपि वयं कार्यक्रमान् निश्चयेन कुर्मः इति राजेन्द्रः वदति किं कुर्मः इत्युक्ते प्रथमदिने कार्यक्रमे पञ्चमवर्गस्य छात्राः सज्जीकृता इत्युक्ते
सज्जीकृताः तत्र ते सज्जाः इति चिन्तयतु ते सज्जाः सन्ति ते सज्जाः सन्ति तत्र
सज्जाः सन्ति
तत्र हा तत्र कर्मणि रूपम् इति तप्रत्ययः अस्ति कर्मणि इति एव अस्ति किन्तु इदानीं मास्तु तत्र परिवर्तनं मास्तु तत् केवलं यत्र केवलं तत्र स्थूलक्षरम् अस्ति खलु भगिनि तत्र धार्यते इति अस्ति खलु तत्र साक्षात् क्रियापदस्य अस्मिन् पाठे यद् क्रियापदं कर्मणि प्रयोगक्रियापदम् इति दत्तमस्ति तस्य एव परिवर्तनं कुर्मः अन्येषां मास्तु अतः तत्र अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय
नाम
कार्यक्रमार्थं तस्य तदर्थं पञ्चमवर्गस्य
छात्राः सज्जीकृताः
तस्य तेषां सज्जीकरणं वयं कृतवन्तः ते सर्वे सज्जाः सन्ति अतः तत्र कार्यक्रमः भवति प्रथमदिनस्य कार्यक्रमः पञ्चमवर्गस्य छात्राणां तेषां तत्र किमस्ति तत्र तेषां रेस्पान्सिबिलिटि तत् किमस्ति तत् किं पदम् अस्ति उत्तरदायित्वं तेषाम् उत्तरदायित्वम् अस्ति अस्तु अग्रे विद्यालयस्य
विद्यालयस्य पुरतः मार्गे स्थित्वा तैः सर्वेषां ललाटे तिलकं धार्यते
तत्र चिन्तयामः तत्र कर्तृपदं किं कर्मपदं किं क्रियापदं किम् इति तावदेव तस्मिन् वाक्ये तस्मिन् भागे
तैः कर्मपदं
तैः कर्मपदं वा किं पदं
तैः कर्मपदं तृतीयविभक्ते अस्ति
तत्र कर्मणि प्रयोगे नियमः कः कस्य
कर्तृपदं तृतीयविभक्तौ भवति
हा अतः तैः इति कर्तृपदं समीचीनं
कर्तृपदं
हा अस्तु अग्रे
अग्रे तिलकं
हा तिलकम् इति
कर्मपदमस्ति
हा अतः तत्र लघुवाक्यं स्वीकुर्मः तैः तिलकं
तैः तिलकं धार्यते
इति लघुवाक्यं स्वीकुर्मः हा इदानीं तत्र
तैः बहुवचनं तृतीयविभक्ति द्वितीयविभक्ति तेन
न न तैः इति तृतीयविभक्ति किन्तु तत्र वचनं किं तैः इति पदस्य वचनं
तैः बहुवचनं तृतीयविभक्ति
हा बहुवचनं बहुवचनं तृतीया बहुवचनम् अतः तत्र प्रथमाविभक्तौ अपि तत्र बहुवचनं भवेत् खलु
आम् आम् ते सः तौ ते
हा समीचीनं
ते
तिलकं
धरति धारयति
तिलकं धार्यते हा तत्र धारयति हा धारयति इति एव समीचीनं यतोहि तत्र
न महोदय
धारयन्ति हा ते धारयन्ति
ते धारयन्ति
हा
बहुवचनं इत्युक्ते धारयन्ति
हा इदानीं तत्र पूर्णवाक्यं वदतु इदानीं
विद्यालयस्य पुरतः मार्गे स्थित्वा ते सर्वेषां ललाटे तिलकं धारयन्ति
इति समीचीनं हा अस्तु अग्रे
तत्र निजन्तमस्ति खलु महोदय
धारयन्ति इत्येव हा तदेव धारयन्ति इति एव उक्तं खलु भगिनि अतः
धारयन्ति अपि निजन्तम् अपि च धार्यते अपि निजन्तस्य कर्मणि इति
हा इति सत्यं हा
अस्तु
सत्यं हा हा सत्यं भगिनि हा तत्र तत्र पठति इति पठ्यते पाठयति इति किं भवति
पाठ्यते पाठ्यते
हा अथवा भेदः अस्ति खलु
आमां ध्रु इति धातुः तस्य धरति इति लटि तस्य णिजन्ते धारयति धारयति णिजन्तस्य कर्मणि धार्यते इति
धार्यते सत्यं अतः तत्र मूलधातुः इति न तत्र किं रूपम् अस्ति साक्षात् अस्ति वाक्ये तं दृष्ट्वा एव तत्र तत्र कर्मणि प्रयोगस्य निर्माणं भवति समीचीनं भगिनि हा अस्तु अग्रे भगिनि
संस्कृतसप्ताहस्य शुभाशयाः उच्यन्ते तैः शुभाशयाः उच्यन्ते
हा तत्र न न तैः समीचीनं तैः सुभाषिताः
आशयाः उच्यन्ते
तैः तैः इति स्थाने पुनः ते इति
ते आगच्छति सुभाषयाः स्थाने सुभाषयान्
हा संस्कृतसप्ताहस्य सुभाषयान् समीचीनम् इदानीं तत्र उच्यन्ते इति किञ्चित् प्रायशः नूतनम् अस्ति यतोहि तत्र धातुः तत्र अस्ति वच् धातुः तत्र इदानीं तस्य विवरणार्थं तत्र अग्रे पश्यतु भगिनि तत्र कस्मिन् अग्रे दत्तमस्ति इदानीम् अग्रे एतस्य परिशीलनं सर्वं भवति किन्तु तत्र केवलम् इदानीं तस्य प्रयोगः अस्ति इति कृत्वा तत्र पुटसङ्ख्या अस्ति भगिनि 125
आं महोदय
हा
125
अत्र हा वद् धातुः वदति इति उद्यते इति भवति वच् धातुः वक्ति इति उच्यते इति भवति वप् इति वपति उप्यते वह् वहति इति उह्यते इति भवति वकारस्य सर्वत्र ऊकारः भवति अतः हा अतः अत्र किं भवति तत्र उच्यते इति अस्ति इदानीं
ते सुभाषयान्
इदानीं तत्र वक् हा तत्र वक्ति इति वक्ति इति एकवचने वयं शृण्मः किन्तु तत्र वदति इति साधारणतया वयं तस्य प्रयोगः भवति किन्तु वदन्ति इति स्वीकुर्मः किन्तु तत्र साक्षात् क्रियापदमस्ति तत्र वक्ति अपि वचन्ति इति किमपि अस्ति इति मन्ये खलु वच् एकनिमिष हा 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 वचन्ति इति अस्ति हा वक्ति वक्तः वचन्ति
तत्र वचन्ति
वचन्ति अतः तत्र वाक्यं किं भवति पूर्णवाक्यं ते
संस्कृतसप्ताह ते संस्कृतसप्ताहस्य सुभाषयान् वचन्ति
वचन्ति इति भवति समीचीनं भगिनि
वदन्ति इति न भवति वा महोदय तत्र
यतोहि भगिनि तत्र उच्यन्ते इति अस्ति खलु भगिनि
उच्यन्ते
तत्र वच् इति धातुः वद् इति नास्तु नास्ति
वच् इति धातुः अस्ति वा महोदय
वच् इति धातुः अस्ति पेज् 125 पश्यतु अतः तत्र वच् इति धातुः उष्यन्ते इति तस्य कर्मणि रूपम् अस्तु समीचीनम् अस्तु अग्रे तत्र हर्षदा भगिनी अग्रिमं करोति वा
आं महोदय समीचीनम् एतत् अभयवर्य भवता किं चिन्त्यते चिन्त्यते इति चिन्तयति भवान् किं चिन्तयति भवान् किं चिन्तयति
हा तत्र चिन्तयति इति तत्र प्रायशः चिन्तयति इति सकर्मकः एव किन्तु तत्र चिन्तयति हा चिन्तयति इति एव अस्ति भगिनि हा चिन्तयति इति अस्ति हा हा चिन्तयति समीचीनमेव तत्र केवलं तत्र सकर्मकः धातु वा इति मम संशयः आसीत् सकर्मकः एव तत्र अतः तत्र किम् इति भवितुम् अर्हति तत्र किम् इति कर्मपदं भवान् किं चिन्तयति हा समीचीनम् अग्रे
अग्रे अभयः द्वितीये दिने मया गीतस्पर्धा आयोज्यते द्वितीये दिने अहं गीतस्पर्धाम् आयोजयामि
हा आयोजयामि समीचीनं हा अहं गीतास्पर्धाम् आयोजयामि स्पर्धां
महोदय गीतास्पर्धा महोदय गीतास्पर्धा न गीतस्पर्धा
हा क्षम्यतां गीतस्पर्धां गीतस्पर्धाम् आयोजयामि समीचीनं भगिनि हा सत्यम्
प्रधानाचार्यः तस्मिन् कार्यक्रमे कैः कैः भागः गृह्यते तस्मिन् कार्यक्रमे के के भागं गृह्णाति
हा के के भागा गृह्णन्ति तत्र भागं हा के के भागं
गृह्णन्ति आं गृह्णन्ति बहुवचन आवश्यकं बहुवचन
हा बहुवचन हा के के भागं
भागं गृह्णन्ति
समीचीनं भगिनि हा अस्तु अग्रे तत्र प्रिया भगिनी अग्रे करोति वा
आं महोदय अभयः षष्ठवर्गस्य छात्रैः समूहगीतं प्रस्तूयते
तत्र कर्तृपदं कर्मपदं किम् इति एकवारं उक्त्वा तदनन्तरं परिवर्तनं करोतु
अस्तु अत्र छात्रैः इति कर्तृपदं समूहगीतम् इति कर्मपदमस्ति तदनुसृत्य प्रस्तूयते इति क्रियापदमस्ति षष्ठवर्गस्य छात्राः समूहगीतं प्रस्तूयते न जानामि किम् अस्ति
स्तुवन्ति इति अस्ति भगिनि स्तु इति धातुः
अस्तु स्तुवन्ति
हा स्तुवन्ति इति अस्ति हा तत्र स्तु इति धातुः तत्र स्तौति इति तत्र स्तुतिः कुर्वन्ति इति अस्ति खलु भगिनि स्तुवन्ति तत्र तथैव अस्ति तत्र एकवचने स्तौति इति रूपम् अस्ति अत्र तु बहुवचनमेव अपेक्षितम् अपि तत्र यथा वयं दृष्टवन्तः तत्र यकारः अन्ते एव आगच्छति खलु धातु अनन्तरमेव आगच्छति खलु तत्र कर्मणि प्रयोगस्य निर्माणे अतः उपसर्ग अस्ति चेत् किमपि हानि कोऽपि कापि हानिः नास्ति खलु नाम तत्र प्र इति उपसर्गः अस्ति स्तूयते इति रूपं दृष्ट्वा स्तौति अथवा स्तुवन्ति इति अस्ति प्र इति उपसर्गः अपि अस्ति अतः तत्र प्रस्तुवन्ति इति
श्वेता
अतः पूर्णवाक्यं पूर्णवाक्यं
षष्ठवर्गस्य छात्राः समूहगीतं प्रस्तुवन्ति
प्रस्तुवन्ति इति समीचीनं अस्तु अग्रे
श्वेता सप्तमवर्गस्य छात्रैः देशभक्तिगीतं गीयते अत्र छात्रैः इति कर्तृपदं देशभक्तिगीतमिति कर्मपदं गीयते इति क्रियापदं कर्मपदम् अनुसृत्य कर्मणि कर्तृप्रयोगे एतत् वाक्यमस्ति सप्तमवर्गस्य छात्राः देशभक्तिगीतं गायन्ति
तत्र एकवारं तत्र एतत् विस्तारेण अग्रे कुर्मः किन्तु पुटसङ्ख्या तत्र 123 मध्ये तत्र विशेषः दातवः दत्ताः तत्र गीयते दीयते एतत् सर्वम् अस्ति तत्र अतः तस्य प्रयोगः अत्र अस्ति अतः तत्र सर्वदा तत्र यकारस्य एव तत्र स्थापनीयम् अस्ति किन्तु तत्र भिन्नानि रूपाणि अपि भवितुम् अर्हन्ति अतः किञ्चित् सावधानम् अपेक्षितं किन्तु समीचीनं अतः तत्र छात्राः देशभक्तिगीतं गायन् अत्र गायन्ति खलु
गायन्ति
गायन्ति अस्तु अग्रे
प्रधानाचार्यः तृतीये दिने संस्कृतभारत्याः विज्ञानप्रदर्शिनी आयोज्यते खलु अत्र संस्कृतभारत्याः इति कर्तृपदमस्ति विज्ञानप्रदर्शिनी इति कर्मपदमस्ति तत् अनुसृत्य आयोज्यते इति क्रियापदमस्ति एतस्य वाक्यस्य कर्तृप्रयोगमस्ति तृतीये दिने महोदय संस्कृतभारत्याः इति नास्ति अत्र कोऽपि कर्तृपदमेव न अस्ति
न न भगिनि संस्कृतभारत्याः इति तत्र विभक्ति का तत्र
षष्टिविभक्ति
अस्ति षष्टि अतः तत्र प्रायशः तत्र वयमिति स्वीकुर्मः
अस्तु तृतीये दिने वयं संस्कृतभारत्याः विज्ञानप्रदर्शिनीम् आयोजयामः खलु
समीचीनं समीचीनं भगिनि तावदेव अस्ति अस्तु समीचीनम् अस्तु अग्रे तत्र एतावत् तत्र के सर्वे कृतवन्तः इति मन्ये अस्तु तत्र उषा भगिनी कृतवती वेदा भगिनी न कृतवती वा अस्तु
गौरवः आम् अभयः आम् श्रीमन् गौरवः चतुर्थे दिने तु श्रावणपूर्णिमा अतः सर्वैः परस्परं रक्षासूत्रं बध्यते तत्र सर्वैः इति तृतीया विभक्ति अस्ति कर्तृपदे तत् भवति सर्वे बहुवचनं रूपं
सर्वे
परस्परं रक्षासूत्रं सर्वे बध्धातु बध्नन्ति
समीचीनं
पञ्चमे दिने अष्टमवर्गस्य छात्रैः तत्र वीथिनाटकं प्रदर्श्यते पञ्चमदिने अष्टमवर्गस्य छात्रैः तत्र छात्रैः अत्र तृतीया विभक्ति बहुवचनमस्ति छात्रशब्दः अस्ति तस्य प्रथमविभक्ति भवति बहुवचने छात्राः तत्र वीथि नाटकम् एव अस्ति कर्मपदे अपि नाटकं प्रदर्श्यन्ते प्रदर्श्यन्ते निजन्तरूपं
किमर्थं प्रदर्शयन्ते इति अस्ति
न नाद्यन्ते न सोरि प्रदर्शयन्ति
प्रदर्शयन्ति अस्तु हा इदानीं प्रश्नः किमर्थं प्रदर्श्यते इति अस्ति छात्रैः इति अस्ति किन्तु किमर्थं प्रदर्श्यते इति अस्ति
प्रदर्श्यते वीथिनाटकम् अनुसृत्य
हा समीचीनं भगिनि अस्तु अस्तु हा अतः वीथिनाटकम् एकवचने अस्ति कर्मपदम् एकवचने अस्ति अतः प्रदर्श्यते किन्तु कर्तृप्रयोगे छात्राः इति भवति अत्र अतः पूर्णवाक्यं वदतु भगिनि पञ्चमे दिने इति
पञ्चमे दिने अष्टमवर्गस्य छात्राः तत्र तत्र वीथिनाटकं प्रदर्शयन्ति
हा इति भवति अस्तु समीचीनम् अग्रे
पङ्कजा षष्ठे दिने सर्वैः छात्रैः शोभायात्रा क्रियते षष्ठे दिने सर्वैः छात्रैः सर्वे छात्राः शोभायात्रा कुर्वन्ति
पुनः दिने न
षष्ठे दिने सर्वे छात्राः शोभा ओ शोभायात्रां कुर्वन्ति
हा समीचीनं
शोभायात्रां कुर्वन्ति तदर्थं केन वस्तूनि सङ्गृह्यन्ते गृह्णन्ते
सङ्गृह्यन्ते
तदर्थं केन तृतीया विभक्ति केन किं कः केन वस्तूनि सङ्गृह्यन्ते तदर्थं केन कः किं वदामि केनस्य के तदर्थं के
केन इति पदस्य तत्र विभक्ति का
केन बहुवच ओ न न न न एकवचने आम् एकवचनमस्ति केन विभक्ति तत् कं किं तदर्थं किं वस्तूनि इव
तत्र प्रायशः कः इति भवेत् खलु
वस्तूनि ओ ओके आम् आं सहि आम् आम् आं महोदय आं तदर्थं कः वस्तूनि सङ्गृह नो गृह्य सङ्गृह सङ्गृह गृहते वा न सङ्गृह गृहन् गृहति गृह्णति
सङ्गृह्णाति सङ्गृह्णाति
गृह्णाति वा ओके
सङ्गृह्णाति
तदर्थं किं वस्तूनि कः वस्तूनि सङ्गृह्णाति केन फलकानि लिख्यन्ते केन फलकानि लिख्यन्ते केन कदापि किं
कः कः
लिख्यन्ते ओ कः कः फलकानि एव कः फलकानि लिखति कः फलकानि लिखति
सः फलकानि कः फलकानि लिखति समीचीनं
केन कुत्र नेतृत्वं विधीयते इत्येवं सर्वं निश्चेतव्यं केन कुत्र नेतृत्वं विधीयते इति एवं सर्वं निश्चेतव्यं केन
तत्र निश्चेतव्यम् इति तथैव भवतु केवलं केन नेतृत्वं विधीयते इति तत्र किं भवति
केन कः कुत्र कः कुत्र नेतृत्वं विधीयते
तत्र धी धातुः दीयते
दीयते
भवति
विधीयते
तत्र धी धातुः तत्र क्षम्यतां धा धातुः ददाति
धा धातु
दीयते धा धातुः ददाति दीयते इति भवति
दीयते
विदधाति तावदेव
विदधाति आं करेक्ट्
विदधाति कः कुत्र नेतृत्वं विदधाति इति एवं सर्वं
निश्चेतव्यं
निश्चेतव्यम् इति तावत्पर्यन्तं समीचीनं भगिनि धन्यवादः
धन्यवादः
अस्तु हा अस्तु अग्रे तत्र अपर्णा भगिनी अग्रे करोति वा सुभदा भगिनी प्रश्नः अस्ति वा
न न
अस्तु अस्तु अग्रे तत्र अपर्णा भगिनी करोति तदनन्तरं अस्तु एकनिमिषः अस्तु प्रणं भगिनि पुटसङ्ख्या अस्ति 117 न श्रूयते भगिनि
साधु साधु यदि श्रूयते वा महोदय
हा इदानीं श्रूयते हा
महोदय श्रूयते वा
इदानीं श्रूयते भगिनि श्रूयते हा श्रूयते भगिनि इदानीं
महोदय श्रूयते वा
श्रूयते
महोदय आम् प्रधानाचार्यः साधु साधु यदि सर्वैः मिलित्वा निश्चीयते तर्हि यदि सर्वे मिलित्वा निश्चयन्ति तर्हि
हा तत्र निश्चयन्ति इति तत्र रूपं कोऽपि स्मरति वा तत्र समीचीनं वा
निश्चितः अस्ति वा चिनोति चिनुतः चिन्वन्ति
निश्चयं निश्चयं कुर्वन्ति तर्हि
अर्थरीत्या सत्यं हा निश्चीयते हा चिनोति इति एव प्रायश भवति खलु चिन्वन्ति इति निश्चिन्वन् निश्चिनोति अथवा निश्चिन्वन्ति इति प्रायश भवति हा इति अस्तु भगिनि तत् तद् अग्रे पश्यामः अस्तु अग्रे पठतु भगिनि हा
सर्वे आम् अस्माभिः तथैव क्रियते आम् वयं तथैव कुर्मः
तथैव कुर्मः अस्तु
प्रधानाचार्यः समग्रकार्यक्रमः केन निरूह्यते समग्रकार्यक्रमं कः निरूहति
तत्र बहिनी तत्र तत्र उच्यते इति तत्र वच वक्ति वच् धातुः उच्यते इति भवति वदति इति उद्यते इति भवति अत्र तत् किं भवति तत्र वहति वहति इति अस्ति वहति उह्यते इति भवति निर्योगः वहति निर्वहति
समग्रकार्यक्रमं कः निर्वहति
इति समीचीनम् अग्रे
राजेन्द्रः मया
अहं निर्वहामि समीचीनम्
अभयः मया मञ्चः अलङ्क्रियते अहं मञ्चम् अलङ्करोमि
समीचीनम् अग्रे
गौरवः मया सर्वाणि अपेक्षितानि वस्तूनि आनीयन्ते अहं सर्वाणि अपेक्षितानि वस्तूनि आनयामि
समीचीनम् अस्तु अग्रे
पङ्कजा श्वेता आवाभ्यां कार्यक्रमार्थं छात्राः सज्जीक्रियन्ते आवां कार्यक्रमार्थं छात्रान् सज्जीकुर्वः
समीचीनं भगिनि धन्यवादः समीचीनमस्ति धन्यवादः भगिनि समीचीनम्
महोदय निरूह्यते विषये किम् उक्तवान् न अवगतं
निरूह्यते इति वा
आं महोदय
तत्र वहति इति अस्ति भगिनि निर्वहति इति तस्य कर्मणि रूपमस्ति निरुह्यते इति तत्र वहति इति वह् धातुः उह्यते इति भवति तत्र यथा पुटसङ्ख्या 125 मध्ये तत्र वच् इति उच्यते वदति इति उद्यते तत्र वकारस्य उकारः भवति भगिनि
वह इत्यस्य उह्यते इति
उह्यते इति भवति अतः तत्र किञ्चित् क्लेशः अस्ति तत्र निरुह्यते ऊहा कुर्मः वा इति अस्ति किन्तु न वहति इति भवत्येव
तत्र निहि उह्यते विसर्गसन्धिः भूत्वा निरुह्यते इति भवति इति भाति परन्तु नि उपसर्ग अस्ति न
नि इति उपसर्गः तत्र निर्वहति निर्वहति इति अस्ति अस्तु हर्षद भगिनी
आम् तत्र अहम् अष्टाध्याय्यां परिशीलनं कृतवती निश्चीयते चीयते इत्यस्य धातु तत् चिनोति एव सो निश्चिन्वन्ति निश्चिन्वन्ति बहुवचने इत्येव
धन्यवादः निश्चिन्वन्ति हा धन्यवादः समीचीनं हा अस्तु उत्तमं अस्तु तर्हि तत्र अन्तिमभागः अस्ति तत्र एतावत् का न पठितवती अथवा अग्रे तत्र का पठितुम् इच्छति तत्र वंशीसुधा भगिनी एतावत् न पठितवती तत्र पठितुम् इच्छति वा किञ्चित् नो चेत् तत्र सर्वे कृतवन्तः इति मन्ये तत्र अस्तु अस्तु चिन्ता मास्तु भगिनि अस्तु हा सुजाता भगिनी कर्तुम् इच्छति वा
आम् आं महोदय राजेन्द्रः मया
न न न तत्सर्वं कृतं भगिनि तत्र पङ्कजा इति गीतानां रागसंयोजनाय
गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च
सङ्गीतशिक्षिकया
सहायं क्रियते किम्
कर्तृपदं कर्तृपदं कर्मपदम् अपि क्रियापदं किम् इति प्रथमतया परिशीलनं भवेत्
गीतानां संयोजनाय
तत्र तृतीय गीतानाम् इति षष्ठी संयोजनाय
संयोजनाय इति चतुर्थी भवति
अग्रेपि चतुर्थी
तृतीया
अस्ति कुत्र तृतीया अस्ति
सहायम् इति कर्तृपदम् कर्मपदमस्ति
अतः
सहायं क्रियते किं
तृतीयविभक्त्यन्तं पदम् अस्ति वा अस्मिन् वाक्ये एकं पदम् अस्ति तत् किं
गीतानां देशनाय च शिक्षिकया तृतीया विभक्ति अस्ति वा शिक्षिकया
समीचीनं तदेव कर्तृपदम् इदानीं तत्र
शिक्षिकया शिक्षिका सहायं
करोति किम् इदानीं तद् उपयुज्य पूर्णवाक्यं वदतु
गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च सङ्गीत
शिक्षिका
साहाय्यं करोति किम्
इति भवति तथैव अस्ति अस्तु समीचीनं समीचीनं भगिनि अतः तत्र अद्य वयम् अस्माभिः तत्र कर्मणि प्रयोगस्य परिचयः अस्माभिः प्राप्तः अस्तु अग्रे गत्वा तत्र अनेकेषु लकारेषु वयं तत्र कर्मणि प्रयोगस्य अभ्यासं कुर्मः करिष्यामः अतः चिन्ता मास्तु
प्रथमदिने
अस्तु तर्हि तत्र अन्ते तत्र शुभदा भगिनी अन्ते धन्यवादः भगिनी सुजाता भगिनी शुभदा भगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि
आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय नमस्कारः
धन्यवादः भगिनी धन्यवादः